सरस्वतीहां गुरुशापनष्टां त्वां यज्ञवल्क्याय तदाद विद्यां त्वामेव वाणी कवचं जपन्त प्रसाद्य विद्यां बहवोदिजग्मु त्वं देवि सावित्री यभितां ददासि प्रसाददस्ते खलु वेदमातु लेपे नृबालो अश्वपदिस्तनुजां नाम्ना च सावित्र्या अभवत् किलैषा।